महोदय।
ॐ सहना भवतु सहनौ भुनक्तु सह वीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै। ॐ शान्तिः शान्तिः शान्तिः।
सर्वेभ्यो नमः, धन्यवादः महोदय। अस्तु, अस्माकं सर्वेषां स्वागतम् अस्मिन् वर्गे। अस्माकं प्रवर्तमानः विषयः अस्ति तत्र अव्ययनीति, तत्र च अपि एव इति यत् इति। अत्र अध्यायः अस्ति 36, कूटसङ्ख्या 139 इति। तत्र गतवर्गे वयं किं च अपि इति कृतवन्तः। इदानीं तत्र यानि श्लोकानि सन्ति तत्र पुटसङ्ख्या 140 मध्ये तद् पश्यामः। तदनन्तरं तत्र च इति विषये तत्र कोऽपि वदति वा, कः नियमः अपि अपि अस्ति चेत् तत्र कः नियमः इति कोऽपि वदति वा, च अस्ति चेत् तत्र। रघुपतिमहोदय किञ्चित् वदति वा, च इति किं सूचयति, च वाक्ये च आगच्छति चेत् किं सूचयति इति। अस्तु, पूर्णेन्दु महोदय किञ्चित् वदति वा।
आम् महोदय, किमपि समूह सूचयितुं, समूह अथवा कुत्र जनद्वयम् अथवा त्रयं सन्ति चेत् तेषाम् एकम् एकं नाम स्वीकृत्य सूचनां प्रदानं कर्तुम् इच्छाम् अस्ति चेत् समूहस्य अन्ते च योजयामः।
समीचीनं, तत्र च अस्ति चेत् तत्र समूहः अस्ति, अपि समूहे ये सदस्याः सन्ति तेषां विभक्ति, तस्य विभक्तेः नियमः कः इति तत्र गीताञ्जलि भगिनी तत्र वदतु महोदय, वदतु।
प्रथमपुरुष प्रथमविभक्ति एकवचने प्रयोगं कर्तुं शक्यते इति अहं चिन्तयामि।
केवलं प्रथमविभक्ति इति वा, तत्र रामः अस्ति, लक्ष्मणः अपि अस्ति, अहं रामं लक्ष्मणं च पश्यामि इति कर्तुं शक्नुमः खलु। इदानीं तत्र अस्तु, तत्र द्वितीयविभक्ति वा तृतीयविभक्ति वा भवितुम् अर्हति, किन्तु तत्र अन्यनियमः अत्र अस्ति। तत्र गीताञ्जलि भगिनी किञ्चित् वदति वा, तत्र समूहः यत्र अस्ति, ये सदस्याः सन्ति समूहे, तेषां विभक्तेः नियमः कः?
आं महोदय, सर्वे सदस्याः
सदस्यानां समानविभक्ति भवेत्
भवेत्।
हा, तत्र केवलं तत्र रामः लक्ष्मणं च इति तादृश न कदापि न भवति, तत्र रामं लक्ष्मणं च इति तादृशरूपमेव भवति। समीचीनं भगिनि, अस्तु, धन्यवादः। हा, अतः तत्र च अस्ति चेत् तत्र समूहं सूचयति। इदानीं तत्र अपि अस्ति चेत् तत्र किं भवति, अपि इत्युक्ते किम्?
अहं वदामि महोदय।
अस्तु भगिनि, भवती एव वदतु। हा,
अपि इत्युक्ते यदि किमपि अभवत् अपि एकम् अन्यं।
हा, इदानीं तत्र अपि अस्ति चेत् तत् अपि इति कस्मिन् एकस्मिन् वाक्ये भवति इति चिन्तयामः। तत्र रामः वदति अहमपि गच्छामि इति, तत्र तेन वयं किम् अवगच्छामः?
यदि रामः वदति अहमपि गच्छामि इत्युक्ते किमपि
अन्य कोऽपि गच्छति तत्र अथवा उक्तवान् अथवा उक्तवती इति अपि तत्र केवलं प्रथमवाक्यम् इति न खलु, तस्य पूर्वं किमपि अस्ति. हा, अतः अपि इति वाक्यं भवति चेत् केवलं तस्य वाक्यस्य अवगमनेन तस्य वाक्यस्य अवगमनार्थम् अन्यत् वाक्यस्य अन्यवाक्यस्य आवश्यकता अस्ति खलु.
महोदय, अनुवृत्ति अस्ति वा महोदय?
हा, अनुवृत्ति इति, हा, तत्र यथा व्याकरणे तादृश वदन्ति तत्र अनुवृत्तिः इति. हा, सत्यं सत्यं भगिनि. हा, किन्तु तत् किं पारिभाषिकशब्दः इति अपि कर्तुं वक्तुं शक्नुमः. मास्तु, अपि इति सुलभमेव अस्ति. तत्र अपि अस्ति चेत् तत्र पूर्वं किमपि अभवत्, तत्र कोऽपि वदति अहं गच्छामि, अन्यः वदति अहमपि गच्छामि इति. अतः तत्र अपि अस्ति चेत् तत्र पूर्वं किमपि अस्ति, तस्य पूर्वं के तत् प्रथमवाक्यं न इति, तावदेव. अस्तु तर्हि, तत्र पुटसङ्ख्या 140 मध्ये तत्र अपि इति रूपाणि दत्तानि सन्ति. तत्र हा, अत्र अपि इति अपि च अपि अपि विषये तत्र च समूहस्य अन्ते एव भवति साधारणतया, तत्र रामः लक्ष्मणः सीता च इति. किन्तु अपि इति कुत्र भवति वाक्ये?
द्वितीयभागे.
हा, द्वितीयभागे भवति, किन्तु तत्र पदे वाक्ये तस्य महत्वम् अस्ति न वा इति. हा, तस्य उदाहरणानि पश्यामः, तदनन्तरं तस्य एतस्य निर्णयः अग्रे भवतु. तत्र अपि इति पदस्य वाक्ये अपि पदस्य स्थानस्य महत्वम् अस्ति न वा इति. अस्तु, इदानीं तत्र वाक्यानि परिशीलयामः, तदनन्तरं तत्र एव इति अपि तत्र गच्छामः. अस्तु तर्हि, तत्र पुटसङ्ख्या हा चत्वारिंशत्, तत्र किं शताधिकचत्वारिंशत् इति प्रायशः
शताधिकचत्वारिंशत्
चत्वारिंशत्, केचन वदन्ति चत्वारिंशत् अधिकशतम् इति. तत्र अष्टोत्तरशतम् इति वदामः खलु, नामावली इति विषये खलु, तत्र शतम् इति. हा, अतः तत्र चत्वारिंशत् अधिक शतम् इति अपि वक्तुं शक्नुमः इति मन्ये. हा, अस्तु तर्हि, तत्र शोभा भगिनी नमस्कारः, वंशीसुत भगिनी नमस्कारः.
नमस्ते महोदय.
नमस्कारः भगिनि, वंशीसुत भगिनी नमस्कारः. हा, नरेश् महोदय तत्र आरम्भं करोति वा, तत्र पुटसङ्ख्या 140 मध्ये एतेषु वाक्येषु इति.
एतेषु वाक्येषु अपि इत्यव्ययम् अवलोकयत.
हा, इति अव्ययम् अवलोकयत, अव्ययम् अस्ति इति परिशीलयतु, जानातु.
మీరు మాట్లాడుతున్న వ్యక్తి మీ కాల్ను హోల్డ్ లో ఉంచారు, దయచేసి లైన్ లో ఉండండి. The person you are speaking with has put your call on.
ఆ, అస్తు. అస్తు అగ్ర.
श्रुत्वा अपि ब्रह्म कश्चित् न जानाति.
हा, तत्र अपि इति अस्ति. हा, तत्र अपि इत्युक्ते किम्? अत्र
श्रुत्वा अपि कश्चित् न जानाति.
कश्चित् न जानाति. हा, तत्र क्रियापदं किं महोदय? अत्र
जानाति,
जानाति इति क्रियापदं. कर्तृपदं किम्?
ब्रह्म.
न, कः न जानाति? तत्र पदम् अस्ति. हा, कश्चित् कश्चित् असर्टन् सम्वन्, हा, कश्चित् अथवा नो वन् इति अत्र. हा, कश्चित् न जानाति इति. तत्र किं न जानाति इदानीं कर्मपदं किम्? ब्रह्म इति कर्तृ कर्मपदमस्ति तत्र इदानीं तत्र कश्चित् ब्रह्म न जानाति इदानीमपि इति स्वीकुर्मः तत्र श्रुत्वा अपि कश्चित् ब्रह्म न जानाति अथवा श्रुत्वा अपि ब्रह्म कश्चित् न जानाति इत्युक्ते तस्मिन् विषये वयं श्रुतवन्तः किन्तु कोऽपि ब्रह्म न जानाति इति तस्य ज्ञानम् अन्ते सर्वेषां अन्ते तस्य ज्ञानं नास्ति इति सर्वदा नास्ति इति खलु तादृश अर्थः तत्र तस्य विषये वयं बहुवारं श्रुतवन्तः ब्रह्म परब्रह्म अस्ति इति किन्तु तत्र वयं न जानीमः इति न जानीमः इति कः वक्तुमिच्छति
अस्तु तत्र ब्रह्म यदि कर्मपदम् अस्ति चेत् द्वितीयां भवितुं शक्
द्वितीय एव तत्र
ब्रह्म किल तत्र
न तत्र अकारान्तपदं नास्ति ब्रह्म इति तत्र ब्रह्मन् इति नकारान्तपदम् अस्ति महोदय अतः
अस्तु
प्रश्नः समीचीनः एव किन्तु तत्र ब्रह्म ह इति तत्र ब्रह्मन् इति रूपं भवति नकारान्तपदं प्रायशः नपुंसकलिङ्गपदमेव इति मन्ये अथवा किन्तु तत्र रूपं कर्मपदमेव तत्र
मम समीपे पृष्टवन्तः महोदय पूर्वं ब्रह्माणम् इति कर्मपदं दृष्टवन्तः वयं
ब्रह्माणं किन्तु अत्रापि भगिनि अहं चिन्तयामि तत्र ब्रह्म इति तदपि तत्र आत् तत्र कश्चित् न जानाति तत्र कः एव कर्तृपदं ब्रह्म इति तस्य एतत् कर्मपदमेव किन्तु तस्य नकारान्तपदम् इति नास्ति अस्तु किन्तु
नकारान्तनपुंसकलिङ्गं यदि नकारान्तनपुंसकलिङ्गम् अस्ति चेत् ब्रह्म भवति परन्तु नकारान्त पदं ब्रह्मन् इति किं
तत्र ब्रह्मन्
लिङ्गद्वये
परन्तु ब्रह्मन् अपि पुल्लिङ्गे अपि अस्ति तत्
सूचयति नपुंसकलिङ्गपदम् इति समीचीनं नपुंसकलिङ्गपदं यतः तत्र अस्माकं क्लेशः कदा भवति यत्र नपुंसकलिङ्गपदमस्ति तत्र एव अस्माकं क्लेशः भवति खलु तत्र कर्मपदं वा कर्तृपदं वा इति अतः तत्र
महोदय इत्युक्ते अत्र नपुंसकलिङ्गे यदि वयं स्वीकुर्मः चेत् अर्थः किम्
अत्र कः तत्र कश्चित् इत्युक्ते कश्चित्
ब्रह्मपदस्य ब्रह्मपदस्य अर्थः किम् अत्र इति
ब्रह्म एव परब्रह्म इति एव सूचयति इति सूचयति
ओ अस्तु
तत्र परब्रह्मविषये तस्य विषये वयं सर्वे श्रुतवन्तः बहुवारं किन्तु वस्तुतः कोऽपि न जानाति तं न जानाति अथवा तत् न जानाति इति
अस्तु धन्यवादः महोदय
नवविंशति श्लोकः अस्ति महोदय
भगवद्गीतायां भगवद्गीतायां कुत्र अस्ति एतत्
द्वितीय अध्याये नवविंशतिः श्लोकः
नवविंशतिः चतुर्थपादः अस्तु
क्षम्यता महोदय मम समीपे एतत् पुटं नास्ति
पेज् 140 नास्ति वा
पुस्तकमपि नास्ति
कः वदति इदानीं
लक्ष्मीसुब्रह्मण्यं
लक्ष्मी भगिनी तत्र गीतासोपनं तु तत्र आन्लैन् मध्ये प्राप्यते भगिनि लभ्यते तत्र केवलं सोपान गीतासोपनं द्वितीयभागं तत्र प्रायः नास्ति इति मन्ये अहम् अन्वेषणं कृतवान् किन्तु प्रथमभागः तु लभ्यते अतः तत्र गीतासोपनं 1 इति गूगल् मध्ये स्थापयतु नो चेत् मम तत्र वर्गस्य ईमेल् मध्ये अपि तत्र लिङ्क् अस्ति तत्रापि क्लिक् कर्तुं शक्नोति. अस्तु तर्हि
महोदय, ओपन् संस्कृत मध्ये महोदय ब्रह्म इति नपुंसकलिङ्गं सुप्रीम् स्पिरिट् एब्सल्यूट् इति दत्तं, किन्तु ब्रह्मन् नकारान्त पुंलिङ्ग् पदम्.
अतः तत्र पदद्वयमस्ति भगिनि, अतः तत्र तस्य रूपद्वयमस्ति. अतः तत्र ब्रह्मन् इति अस्ति चेत् तत्र किं भवति द्वितीयविभक्तौ? भवान् भवन्तम् इति तत्र तादृशरूपभेदः भवति. तत्र ब्रह्मन् आसीत् चेत् ब्रह्मणम् इति रूपम्. अतः किन्तु अत्र कर्मपदम् इति जानीमः, तत्र कश्चित् न जानाति इति एव अर्थः, कोऽपि न जानाति इति. अतः तत्र कर्मपदमेव. अत्र रूपद्वयमस्ति भगिनि, एकं नपुंसकलिङ्गे एकं पुल्लिङ्गे. अस्तु अग्रे गच्छामः तर्हि. अत्र वंशी सुधा भगिनी अग्रे पठति वा?
आं महोदय. स्वधर्मम् अपि चावेक्ष्य न विकम्पितुम् अर्हसि. स्वधर्मम् अपि चावेक्ष्य अवेक्ष्य न विमुक्तिम् अर्हसि. अवेक्ष्य लबन्तपदमस्ति. ईक्षत् धातु अस्ति वा महोदय तत्र?
गतवर्गे तत्र ईक्षते ईक्ष धातुः
ईक्षदधातु लबन्तपदमस्ति. स्वधर्मं तत्र कर्मपदम्
अवयोगः ईक्ष प्रायशः खलु.
आम् महोदय. अपि च अपि अस्ति, च अपि अपि पदमपि अस्ति, च अपि अपि अस्ति
महोदय.
तत्र द्वयोः द्वयोः प्रसक्तिः अस्ति. अतः तत्र कर्मपदमस्ति स्वधर्मम् इत्युक्ते स्वधर्मं जानाति यः जानाति, परन्तु त विकम्पितुं न अर्हसि इत्युक्ते न कम्पितुम् अर्हसि अर्थः वा महोदय?
तत्र अर्जुनं प्रति श्रीकृष्णस्य वाक्यम् एतत् खलु.
आं महोदय.
तत्र अर्जुनं वदति, सः श्रीकृष्णः वदति अत्र त्वं तु विकम्पितुं न अर्हसि. तत्र स्थैर्यम् आवश्यकम् अस्ति, तत्र युद्धं करणीयम् इति. अतः तत्र अपि तत्र स्वधर्मम् अपि तदपि तदपि तस्य विषये अपि चिन्तनं करोति चेत् भवान् जानाति तत्र युद्धं करणीयम् इति. अतः अपि इति स्वधर्ममपि तस्य विषये अपि भवान् चिन्तयतु. तस्य पूर्वं किम् आसीत् इति अहं न जानामि, कोऽपि जानाति वा? तस्य पूर्ववाक्ये अपि इति अस्ति, अन्यत् किम् अवेक्ष्य इति कोऽपि जानाति वा?
स्वधर्ममपि चावेक्ष्य न विकम्पितुं.
न न तस्य पूर्वं किन्तु अन्यत् किम् अवेक्ष्य? तस्य पूर्वं किमपि भवेत् खलु, अपि इति अस्ति. अतः
देहि नित्यमवद्योयं देहे सर्वस्य भारत, तस्मात् सर्वाणि भूतानि न त्वं शोचितुमर्हसि.
एतत् शोचितुमर्हसि न, तत् विकम्पितुम् अर्हसि इति
न महोदय, पूर्व श्लोकः अस्ति.
आत्मज्ञानं महोदय, पूर्वम् आत्मज्ञानं बोधितं कृष्णेन, तदनन्तरं स्वधर्ममपि आत्मज्ञानरीत्या एव नास्ति.
आत्मज्ञानेन अपि तत्र मार्गः अग्रे मार्गः कः इति सः ज्ञातुं शक्नोति, नो चेत् स्वधर्मेन अपि सः ज्ञातुं शक्नोति इति. अस्तु अस्तु, धन्यवादः महोदय. अस्तु, अतः तत्र अपि इति अस्ति. अस्तु समीचीनं. अपि इति इदानीं जानीमः किमर्थम् अस्ति तत्र. धन्यवादः महोदय. अस्तु, इदानीं तत्र उषा भगिनी वदति वा?
आं महोदय. स्वल्पम् अपि अस्य धर्मस्य महतः भयात् त्रायते. स्वल्पम् अपि अस्य धर्मस्य षष्टिभक्ति अस्ति अस्य धर्मस्य विशेषणविशेषणमस्ति महोदय अस्य धर्मस्य
सत्यं
महतः अपि षष्टिभक्ति एव अस्ति
महतः इति महान् इति शब्दस्य
महतः
तत्र पञ्चमी षष्ठी रूपं समानं किन्तु तत्र अत्र अत्र पञ्चमी
भयात् अपि पञ्चमी अस्ति पञ्चमी
विभक्ति अतः महान् भयः इति अस्ति वा भयम् इति अस्ति वा महत् तत्र कोऽपि किन्तु भयम् इति वा पुल्लिङ्गे अस्ति वा अथवा नपुंसकलिङ्गे भयम् इति अस्तु अतः महत् भयं महत् भयम् इति प्रथमविभक्तिरूपं त्रायते भयात् त्रायते स्वल्पमपि तत्र स्वल्पमपि अत्र अन्यत् किमपि अस्ति वा अत्र अपि इति
स्वल्पमपि
अत्र यथा पूर्वमासीत् तत्र रामः आपणं गच्छति अहमपि गच्छामि तस्मिन् सन्दर्भे अपि इति पदस्य अर्थः एकः किन्तु इदानीम् अत्र स्वल्पमपि अस्य धर्मस्य महतः भयात् त्रायते अस्मिन् वाक्ये अपि पदस्य अर्थः कः समानं वा रामः आपणं गच्छति अहमपि गच्छामि इति लक्ष्मणः न अत्र किम्
स्वल्पमपि अस्य धर्मस्य कथं वदनीयं स्वल्पं
महोदय अत्र थोडा भी इवन
अतः तत्र भेदः अस्ति खलु अर्थभेदः अस्ति अतः केवलम् अपि अस्ति चेत् एकः एव अर्थः इति न चिन्तनीयम् अस्तु
महोदय
अस्तु पुल्लिङ्गे अथवा नपुंसकलिङ्गे वा अस्तु अतः महान् भयः अथवा महत् भयम् इति अस्तु धन्यवादः महोदय अस्तु अतः तत्र अपि इति तस् पदस्य अर्थ नूतन अर्थः अस्ति इति इदानीं जानीमः
समीचीनं
अत्र पुल्लिङ्गे अस्ति नपुंसकलिङ्गे अपि अस्ति इति महान् महोदय उक्तवान् अतः भयः अथवा भयम् इति प्रायशः रूपद्वयं
त्रायते
सेव् 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 भयात् त्रायते हेल्प् रिलीस् प्रोटेक्ट् स्वल्पमपि इति अस्तु अग्रे रघुपति महोदय
एक प्रश्न महोदय द्वितीय बिन्दु स्वधर्मम् अपि चावेक्ष्य न विकम्पितुम् अर्हसि अहं मन्ये अपि तत्र समान एव स्वल्पमपि स्वधर्ममपि च
इत्युक्ते
बिकास् वयं वदामः अपि च एकं च अत्र समूहः तु नास्ति किन्तु केवलम् एकं फ्रेज् महोदय वदामः
अस्तु भगिनि न तत्र अत्र न जानामि किन्तु यथा रघुवीरानन्दमहोदय उक्तवान् तत्र अन्यदपि अस्ति तत्र आत्मज्ञानम् इति अतः तत्र तत् कृत्वा तेनापि आत्मज्ञानेन अपि भवान् जानाति तत्र विकम्पितुं न अर्हसि इति अथवा त्वं जानाति विकम्पितुं न अर्हसि किन्तु यदि तेन न जानाति स्वधर्मं स्मृत्वा अपि भवान् त्वं जानासि तत्र विकम्पितुं न अर्हसि इति तादृश अर्थः अस्ति इति
गीताप्रवेशे पुस्तके दत्तमस्ति त्रायते कस्मात् त्रायते भयात् त्रायते कीदृशात् त्रायते महत्तः भयात् त्रायते किं महतः भयात् श्रायते, स्वल्पमपि महतः भयात् श्रायते. कस्य स्वल्पमपि महतः भयात् श्रायते, धर्मस्य स्वल्पमपि महतः भयात् श्रायते.
सः एव अर्थः वयमपि उक्तवन्तः खलु भगिनि. अस्तु अग्रे धन्यवादः भगिनि. हा अस्तु रघुपतिमहोदय अग्रे.
आं महोदय. इन्द्रियाणि यततः पुरुषस्य अपि मनः हरन्ति, पुरुषस्य अपि मनः हरन्ति. तस्य यततः पुरुषस्य इन्द्रियाणि यततः इन्द्रियाणि यततः कर्मपद अस्ति इन्द्रियाणि वा?
हा न न तत्र हा तत्र हा तत्र अस्तु हा हरन्ति इति अस्ति अतः तत्र बहुवचने अस्ति खलु क्रियापदं
हरन्ति. आमां मन
अतः कर्तृपदं किं भवेत् अस्मिन् वाक्ये?
ओ अस्तु अस्तु मनः हरन्ति इन्द्रियाणि हरन्ति
हा इन्द्रियाणि हरन्ति किं हरन्ति?
मनः हरन्ति
मनः इति कर्मपदम् इदानीं कीदृशं मनः कीदृशं मनः इति प्रायशः कर्मपदम् अस्ति इति
ततः पुरुषस्य अपि मनः
हा तत्र पुरुषस्य मनः कीदृशः प्रयत्नं कुर्वन् अस्ति यततः इति तत्र यततः इति किम् अस्ति तत्र यतत् इति प्रातिपदिकं यतत् इति पठत् इति पठन् इति अस्ति खलु तत्र शत्रान्तरूपं तस्य षष्टिविभक्ति यतन् पुरुषः गच्छन् पुरुषः इति यतन् पुरुषः तस्य षष्टि यततः पुरुषस्य
परन्तु महोदय तत्र आत्मनेपदिरूपं भवति चेत् भिन्नं भवति खलु यतते इति तादृश तस्य पदस्य
समीचीनमेव प्रश्नः किन्तु अस्तु तत्र अर्थरीत्यां वदामि तत्र प्रयत्नं कुर्वन् यः अस्ति इति प्रयत्नं कुर्वन् यः पुरुषः अस्ति तस्य अपि मनः इन्द्रियाणि हरन्ति तत्र आत्ममार्गे अग्रे गन्तुं प्रयत्नं कुर्वन् अस्ति कोऽपि पुरुषः तस्य अपि मनः इन्द्रियाणि हरन्ति इति मन्ये
कोऽपि अन्ये चिन्तयन्ति चेत् पदं यतत् एव अस्ति अहं चिन्तयामि तर्हि यतत् एव यतत् अतः तस्य स्वतन्त्ररूपं यततः
षष्टिः एव तत्र यततः अस्ति पुरुषस्य विशेषणम् इति कृत्वा तकारान्तपदं भवत् शब्दवत्
पुंलिङ्गः
पुल्लिङ्गः अस्तु तत्र मनः तस्य अपि मनः हरन्ति केवलं साधारणपुरुषस्य मनः अथवा महिलानां महिलायाः मनः हरन्ति इति न किन्तु ये यत् प्रयत्नं कुर्वन् सन्ति तेषां मनः अपि इन्द्रियाणि हरन्ति इति अस्तु तत्र अपि इति तत्र अस्तु इदानीं अग्रे तत्र चक्री महोदय अग्रे पठितुम् इच्छति वा?
आं महोदय पठामि. न कश्चित् क्षणम् अपि कर्म विना न तिष्ठति न कश्चित् क्षणम् अपि कर्म विना न तिष्ठति
तत्र नकारः द्विवारम् आगच्छति खलु अतः किञ्चित् क्लेशः अस्ति तत्र
आम् महोदय अतः कश्चित् न तिष्ठति इति प्रथमा विभक्ति कश्चित्
तत्र तिष्ठति इति क्रियापदं समीचीनं
महोदय
कर्तृपदमस्ति कश्चित् कश्चित् तिष्ठति
कश्चित् न तिष्ठति,
कश्चित् न तिष्ठति, कश्चित् न तिष्ठति, समीचीनं,
कश्चित् क्षणं न तिष्ठति,
अस्तु अस्तु, अथवा अथवा कर्म विना इति प्रायशः तद् प्रथमतया स्वीकरोतु, कश्चित् कर्म विना न तिष्ठति,
ओ कर्म विना न तिष्ठति, तदनन्तरं कश्चित् क्षणम् अपि कर्म विना न तिष्ठति,
न कश्चित् क्षणमपि कर्म विना न तिष्ठति,
न तिष्ठति,
इत्युक्ते किं
ते इत्युक्ते
प्रतिक्षणं
प्रतिक्षणं किमपि करणीयम् एव,
सर्वे अपि किमपि कर्म कुर्वन् सन्ति इति, सर्वे प्रतिक्षणं किमपि कर्म कुर्वन् सन्ति एव इति, अत्र तत् पश्यामः तत्र अपि अस्ति विना अस्ति न अस्ति, अतः अनेकानि अव्ययानि सन्ति अत्र, समीचीनं वा महोदय अत्र,
अस्तु महोदय,
अस्तु धन्यवादः, अस्तु अग्रे तत्र शुभा भगिनी अग्रे पठितुम् इच्छति वा,
क्षम्यता महोदय, तत्र कर्म विना द्वितीयम् अस्ति वा, तत्र कर्म विना विना यतोहि द्वितीय तृतीय पञ्चमी,
सत्यं भगिनि सत्यं सत्यं, तत्र जानीमः खलु तत्र कर्म इति पदस्य द्वितीयविभक्ति विभक्तेः कारणं तत्र तिष्ठति इति न, कर्मपदं न, तत् कारकविभक्ति न, तत्
सम्यक् भवति किल, अहं
चिन्तयामि
कर्मेण विना कर्मात् विना
कर्मणा विना कर्मणा इति
कर्मणा, क्षम्यतां क्षम्य सत्यं सत्यं सत्यं, कर्मणा कर्मणा विना अथवा कर्मणः इति प्रायशः पञ्चमीविभक्तिरूपम् अस्ति,
शब्दं वा महोदय कर्मण्
कर्मण् नकारान्तशब्दं,
तत्र तत् समीचीनं धन्यवादः,
किन्तु सुलभरूपं कर्म इति नपुंसकलिङ्गपदम् अस्ति, द्वितीयविभक्तिरूपं कर्म इति अस्ति, कर्मपदं किन्तु तत् कर्म इति पदम् अत्र कर्मपदं नास्ति, इत्युक्ते क्रियापदस्य कर्मपदं नास्ति तद् पदं कर्म इति अस्ति, किन्तु क्रियावाक्ये क्रियापदस्य कर्मपदं नास्ति,
अत्र विभक्तिरूपं किं महोदय कर्म
महोदय विना योगे भवति खलु महोदय
द्वितीयविभक्तिरूपम् अस्ति महोदय, किन्तु कर्मपदं नास्ति क्रियापदस्य, तदेव अहम् उक्तवान् कर्मपदं नास्ति, तत्र तिष्ठति इति अस्ति, अतः तिष्ठति अकर्मकक्रियापदम् अस्ति, सः तिष्ठति कर्म विना, अतः तत्र कर्म इति अस्ति किन्तु तस्य द्वितीयविभक्तिरूपम् अस्ति, किमर्थं चेत् विना इति अस्ति, तद् उपपदविभक्ति इति खलु, कारकविभक्ति नास्ति, अस्तु अग्रे शुभा भगिनी अग्रे,
आम् महोदय, भक्ताः कर्मभिः मुच्यन्ते, गद्दावन्तः अनसूयन्तः अपि मुच्यन्ते, भक्ताः मुच्यन्ते कस्मै मुच्यन्ते वा, भक्ताः कर्मभिः मुच्यन्ते कस्मै मुच्यन्ते, तृतीयावसत्रूपं
कस्मै इति न, तत्र कर्मभिः इति तृतीया इति प्रायशः
बहुवचनरूपं वा, कैः कैः मुच्यन्ते, भक्ताः कैः मुच्यन्ते, श्रद्धावन्तः अनसूयन्तः अपि मुच्यन्ते, के मुच्यन्ते, श्रद्धावन्तः अनसूयन्तः अपि मुच्यन्ते,
अतः तत्र अपि इति किम् अस्ति, किमपि जनाः मुच्यन्ते, केवलं ते न अन्ये अपि मुच्यन्ते, अतः अपि इति उपयोगं तत्र भवति, तस्य उपयोगः अस्ति, प्रयोगः अस्ति अत्र, अतः तत्र साधारण अर्थः इति चिन्तयामः, एषः यत्र भक्ताः मुच्यन्ते श्रद्धावन्तः अपि मुच्यन्ते, एषः साधारण अर्थः, यत्र तत्र वयं पूर्वं दृष्टवन्तः स्वल्पमपि अस्य धर्मस्य महतः भयात्रायते, तत्र विशेषः अर्थः इति चिन्तयामः.
अत्र कर्मणि प्रयोगः खलु, कर्मणि प्रयोगः,
भक्ताः मुच्यन्ते, हा प्रायशः ते अपि मुच्यन्ते तत्र, हा प्रायशः अस्ति, अस्तु अस्ति भगिनि इति मन्ये, हा मुच्यन्ते इति रूपं दृष्ट्वा, हा कर्मणि इति मन्ये, हा समीचीनं
भगिनि.
मुच्यन्ते इति अर्थः कः वदति वा?
मोक्षं
मुक्ति इति महोदय,
मुक्ति प्राप्नोति.
तत्र कर्मभिः मुक्ति इत्युक्ते संसारबन्धनेन मुक्ति
इति सत्यं,
कर्ममार्गे गत्वा अपि
कर्मभिः मुक्ति,
कर्मभिः इति तत्र पूर्वमासीत् खलु भगिनी, तत्र मुक्तिः अस्ति चेत् कस्मात् मुक्तिः इति, तत्र प्रायः पञ्चमी विभक्ति भवति,
कर्मबन्धनात् मुक्ति इति अहं मन्ये.
बन्धनात् मुक्तिः तत्र पञ्चमी अस्ति, अत्र कर्मभिः मुक्तिः इति अस्ति, मुच्यते मुच्यन्ते इति, अतः तत् कर्मभिः अत्र तृतीयविभक्तौ अस्ति, तत्र भक्ताः कर्मभिः इति.
ओ महोदय, भवान् इति वक्तुम् इच्छति तत्र पञ्चमी अस्ति चेत् मुक्तिः इति अर्थं वा महोदय?
इति चिन्तयामि भगिनि, द्रष्टव्यमस्ति, किन्तु पञ्चमी आसीत् चेत् तस्मात् मुक्तिः भवति इति.
कर्मं कृत्वा मुक्तिः प्राप्नुवन्ति इति,
हा तादृश अर्थः अत्र अस्ति इति, इति तादृश अर्थः अत्र.
भवान् समीचीनमेव उक्तवान्, कर्मभिः कर्मयोगस्य मार्गेण
अग्रे गत्वा, अतः माध्यमम् इति तृतीयविभक्तौ विभक्तिरूपं तत्र किं माध्यमम् अथवा भावः इति,
तत्र भिन्न अर्थः भवति खलु महोदय?
सत्यं 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 भगिनि, हा अस्तु अग्रे, हा शोभा भगिनि भवती एव अग्रे वदति वा अग्रिमम्?
आम् आं महोदय, ज्ञानी अपि प्रकृत्यनुसारं चेष्टते.
हा अस्तु, एतत् एतावत् वयं गतवर्गे कृतवन्तः खलु, इदानीम् अहं स्मरामि. अस्तु किन्तु अस्तु
अभवत् महोदय,
समीचीनमेव आसीत्.
ज्ञानी अस्ति वा प्रातिपदिकं, ज्ञानी प्रथमविभक्तौ अपि नानी अपि अस्ति इति कृत्वा तत्र पूर्वं किमपि आसीत् किम् आसीत् इति चिन्तयामः चेत् सर्वे तु प्रकृति अनुसारम् एव चरन्ति, किन्तु ज्ञानी अपि स्वप्रकृत्यनुसारं चेष्टते इति इत्यस्य अर्थः वर्तते इति अहं मन्ये महोदय?
न वर्तते,
बहवः अर्थानि सन्ति महोदय तत्र स्ट्रगल् पर्फार्म् कर्माणि सन्ति तत्र प्रकृति इति तत्र प्रकृति अस्ति इति कृत्वा अहं ततः चिन्तितवती महोदय, सम्यक् नास्ति वा?
न जानामि भगिनि, किन्तु अतः तत्र भवती चिन्तयति तत्र अपि इति साधारण अर्थः अस्ति इति, तत्र अन्ये अपि ज्ञानी अपि सामान्यजनाः एतादृश
कुर्वन्ति कुर्वन्ति
किन्तु ज्ञानी अपि तादृश एव करोति अस्तु हा तादृश अर्थः तत्र अत्र अस्माकं हा हा किन्तु भगिनि अत्र अस्माकं तत्र वर्गे अस्माकं मुख्य लक्ष्यः तत्र अपि इति पदस्य अर्थः कः इति
तदेव अहं प्रयत्नं कृतवती महोदय
सत्यमेव भगिनि अहं तदपि अहं चिन्तयामि तत् साधारणजनाः स्वप्रकृत्यनुसारं साधारणपुरुषः महिला वा तत्र स्वप्रकृत्यनुसारं चेष्टते ज्ञानी अपि प्रायशः इति अतः तत्र अपि इति साधारण अर्थः इति मन्ये
तत्र महोदय योगः प्रकृतियोगः अनुसारम् इति प्रकृतिः योगः अनुसारम् इति
हा सत्यं भगिनि प्रकृतिः इति स्त्रीलिङ्गपदं मतिशब्दः
प्रकृतिः पदम्
अत्र तत्र प्रायशः तत्र स्वप्रकृतेः अनुसारम् इति षष्ठीविभक्ति प्रायशः तत्र भवति षष्ठी तत्र प्रायशः समासः एव अस्ति अत्र अत्र अस्ति प्रयत्नं करोति इति मन्ये भगिनि अग्रे गन्तुं प्रयत्नं करोति इति तत्र आत्मसाक्षात्कारार्थं चेष्टते इति यतते प्रयत्नं करोति इति इति मन्ये हा इति मन्ये अस्तु
चेष्टते इत्युक्ते कुरुते
महोदय अत्र स्वप्रकृति अनुसारं ज्ञानी अपि करोति इति प्रकृति अनुसारं करोति इति
तस्य स्वभावेन स्वभावस्य अनुसारेण इति
अस्मिन् श्लोके तु अर्थः कल्पति
अस्तु अस्तु धन्यवादः
रावणः रावणज्ञानी आसीत् परन्तु स्वप्रकृत्यनुसारं चेष्टां कृतवान् अतः तादृश अतः भवति वा
प्रायशः समीचीनम् अस्तु अस्तु अग्रे तत्र धन्यवादः भगिनि अस्तु अग्रे वंशीसुधा भगिनी पठति पठितवती खलु भवती वंशीसुधा भगिनी भवती पठितवती वा
आम् आं महोदय
अस्तु श्रीप्रिया भगिनी हा पठति वा अग्रे
नमस्ते
नमस्कारः भगिनि
अनिच्छन् अपि मनुष्यः कथं पापं चरति मनुष्यः एकत्वपदमस्ति पापम् अनिच्छन् पापम्
हा तत्र मनुष्यः
विना
हा सः न इच्छति पापं कर्तुं न इच्छति किन्तु करोति इति अतः तत्र हा तथापि करोति अतः तत्र अपि इति पदस्य अर्थः किञ्चित् भिन्नः अस्ति खलु अनिच्छन् अपि मनुष्यः पापं कथं पापं करोति इति पापं चरति इति प्रश्नरूपेण अस्ति अस्तु तत्र समीचीनमेव अस्ति इति मन्ये कोऽपि प्रश्नः नास्ति इति मन्ये मधुसूदन महोदय अग्रे पठति वा
चातुर्वर्ण्यस्य कर्ता अकर्ता अपि ईश्वरः अस्ति चातुर्वर्ण्यस्य कर्ता
चतुर्वर्णाः सन्ति इति तेषां चतुर्वर्णः तेषां कर्तः चातुर्वर्ण्य इति चातुर्वर्ण्यम् इति तत्र तस्य भावः तत्र सुन्दरं सुन्दरः सौन्दर्यम् तादृश सुन्दरता इति तादृश चातुर्वर्ण्य इति चातुर्वर्ण्यम् इति हा इति तस्य भावः इति मन्ये हा चातुर्वर्णस्य कर्ता कर्ता अपि ईश्वरः अस्ति हा अत्र किम् अस्ति अपि इति साधारण अर्थः अस्ति वा अपि पदस्य कर्ता अस्ति तत्र हा तत्र वाक्यद्वयं वक्तुं शक्नुमः खलु तत्र चातुर्वर्णस्य कर्ता ईश्वरः अस्ति चातुर्वर्णस्य अकर्ता अपि ईश्वरः ईश्वरः अस्ति हा यत्र तत्र यत्र वयं वाक्यद्वयं समानार्थरूपेण तत्र एकं वाक्यं यदस्ति तत्र वाक्यद्वयं कृत्वा वक्तुं शक्नुमः तत्र यत उपरि अस्ति खलु तत्र साङ्ख्यैः यत् प्राप्यते योगैः अपि तत् गम्यते अथवा प्राप्यते तादृशवाक्यद्वयं यत्र भवति तत्र अपि इति पदस्य साधारण अर्थः रामः गच्छति अहमपि गच्छामि इति तादृश अत्र अपि तादृश अर्थः समान हा साधारण अर्थः कर्ता अपि कर्ता ईश्वरः अकर्ता अपि ईश्वरः अस्ति इति अस्तु
अत्र चातुर्वर्ण्य इत्युक्ते चतुर्वर्णाः इत्युक्ते बहुवचनपदं कथम् अत्र षष्टि एतवचन
चातुर्वर्ण्यस्य इति तस्य भावः इति तत्र वर्णाः इति विषयः नास्ति खलु चतुर्वर्णाः इति नास्ति पदं चातुर्वर्ण्यम् इति अस्ति
ओ भाव अस्तु अस्तु तद्धित अस्तु अस्तु
हा चातुर्वर्ण्यम् इति इति वर्ण्यं प्रायशः नपुंसकलिङ्गे अस्ति इति अकारान्त नपुंसकलिङ्गपदम् इति मन्ये भगिनि चातुर्वर्ण्यम् इति अन्य कोऽपि
ब्रह्मणः क्षत्रियः इति
तदेव चतुर्वर्णः इति हा चतुर्वर्णः सः तदेव सूचितम् इति मन्ये भगिनि तत्र हा तत्र चतुर्वर्णानां कर्ता अकर्ता अपि ब्रह्मः एव इति चिन्तयामि पूर्णेन्दुमहोदय भवान् किमपि वक्तुम् इच्छति वा
महोदय चातुर्वर्ण्यं महासृष्ट्यम् इति
एकनिमिषः लक्ष्मी भगिनि एकनिमिषः पूर्णेन्दुमहोदय वदतु महोदय
चातुर्वर्णस्य कर्ता ईश्वरः अस्ति अकर्ता अपि ईश्वरः अस्ति अकर्ता इति पदस्य प्रयोजनेन अर्थं किं कर्तुं शक्यते महोदय
अकर्ता सः न कृतवान् इति
सः कृतवान् अपि न कृतवान् अपि
हा इति इति मन्ये हा
सामान्यार्थः
हा तत्र गीता
यः कर्ता करोति यः कर्ता न करोति कर्म वन् हू डस् वर्क् अण्ड् वन् हू डस् नाट् डू आल्सो अकर्तां हू डस् नाट् डू
सत्यं भगिनि हा धन्यवादः हा सत्यं भगिनि कर्ता यः करोति अकर्ता यः न करोति अथवा यः न कृतवान् कृतवती इति समीचीनं भगिनि
महोदय चातुर्वर्णस्य इति तत्र भवान् किमपि उक्तवान् इदानीमेव पुनः एकवारं वक्तुं शक्नोति वा
अहं चिन्तयामि तस्य भावः इति अर्थे तत्र चतुर्वर्णः तस्य भावः चातुर्वर्ण्यम् इति तत्र चातुर्वर्ण्यम् इति तस्य भावः अथवा तत्र तदेव तमेव सूचितं चतुर्वर्णवर्णं सूचितमेव अत्र तादृशरूपं स्वीकृतम् इति मन्ये महोदय किन्तु तस्य चतुर्वर्णसम्बद्धपदम्
अस्तु
चातुर्वर्ण्यम्
अस्तु
हा तत्र भावः अर्थे इति अस्ति इति मन्ये महोदय. तत्र सुन्दरः सौन्दर्यं सौन्दर्यं
ब्रह्मण्यस्य भावः ब्रह्मण्यं
ब्राह्मण्यं तादृश तादृश अर्थे महोदय लक्ष्मी भगिनी
भावः.
लक्ष्मी भगिनी भवती किमपि वक्तुम् इच्छति भगिनी? क्षम्यताम् इदानीं वदतु.
चातुर्वर्ण्यं मया सृष्ट्यम् इति उक्तवान् किल भगवद्गीतासम्बन्धे अस्ति वा इति अहं.
तत् सम्बन्धे अस्ति किन्तु अकर्ता इति पदमस्ति कर्ता अतः तत्र अपि इति पदस्य साधारण अर्थः नाम चातुर्वर्णस्य कर्ता ईश्वरः अस्ति अकर्ता अपि ईश्वरः अस्ति अतः तत्र द्विवारम् इति अपि इति तत्र द्वितीयवारं किमपि भवति इति कृत्वा अपि इति आगतम् अस्ति अत्र वाक्ये. रामः गच्छति लक्ष्मणः अपि गच्छति कर्ता ईश्वरः अस्ति अकर्ता अपि ईश्वरः अस्ति इति. अस्तु अग्रे तत्र रघुवीरानन्दमहोदय अग्रे पठति वा.
आं महोदय. पूर्वैः मुमुक्षुभिः अपि ज्ञात्वा कार्यं कृतम्.
तत्र वदतु महोदय
पदं यत् प्रासङ्गिक तस्य
मुमुक्षुः इति तत्र तत्र मुमुक्षुः इत्युक्ते यः यः मोक्षम् इच्छति सः मुमुक्षुः. यः ज्ञातुम् इच्छति सः जिज्ञासुः. तत्र यस्य इति अत्र मुमुक्षुः अत्र तृतीयविभक्तिरूपम् अस्ति बहुवचने खलु महोदय. पूर्वैः मुमुक्षुभिः इति अपि ज्ञात्वा कार्यं कृतं. तत्र किं ज्ञात्वा इति न जानीमः तत्र किन्तु तेन कार्यं कृतम् इत्युक्ते ते अपि कर्म कृतवन्तः इति. तत्र अतः तत्र सर्वेषात् वदतु महोदय. अस्तु तत्र साधारणपुरुषाः अपि तत्र कार्यं तैः अपि कार्यं कृतं किन्तु मुमुक्षिभिः अथवा पूर्वैः मुमुक्षिभिः तत्र अपि इति तत्र तैः अपि ज्ञात्वा तत्र किं ज्ञात्वा इति न जानामि किन्तु तैः अपि ज्ञात्वा कार्यं
कर्ता सः करोति किन्तु न करोति तदेव
ज्ञानमस्ति.
पूर्वमपि तैः मुमुक्षुभिः
ज्ञातं ज्ञात्वा. अस्तु धन्यवादः महोदय समीचीनमेव अस्ति.
इदानीं करोतु.
अस्तु सत्यं सत्यं धन्यवादः महोदय समीचीनमस्ति. अतो अस्तु अतः तत्र सर्वे अवगतवन्तः वा कर्ता इत्युक्ते किम् इति. अस्तु समीचीनमस्ति महोदय. अस्तु मुमुक्षुभिः अपि ज्ञात्वा कार्यं कृतम् इति. ते जानन्ति ते कुर्वन्ति इति अपि ते जानन्ति ते न कुर्वन्ति इति. अस्तु अस्तु अग्रे इदानीं तत्र अग्रे गच्छामः. तत्र किम् एतावत् ललिता भगिनी अग्रे पठति वा.
क्षम्यतां महोदय अत्र पूर्वैः मुमुक्षुभिः किमर्थं तृतीया दत्तं महोदय अर्थ न
तत्र कार्यं कृतं तत्र ते मया कार्यं कृतम् इति तत्र कर्मणि रूपे अस्ति.
ओ ओ ओ अस्तु अस्तु अस्तु.
हा, मया कार्यं कृतम् अथवा मुमुक्षुभिः अपि ज्ञात्वा कार्यं कृतं, ते अपि कार्यं कृतवन्तः इति. तत्र यदि कर्तृरूपे वदामः वाक्यं किं भवति भगिनि?
कर्तरीरूपे पूर्वे मुमुक्षुः.
तत्र प्रथमविभक्ति एकवचनरूपं किम् अस्ति?
पूर्वम् इति महोदय.
तत्र अस्तु, अग्रिमपदं किम् अस्ति? तस्य प्रथमविभक्ति एकवचनरूपं किम् अस्ति?
मुमुक्षु इति तु उकारान्त गुरुः, गुरुः महोदय. मुमुक्षु
अतः लिङ्गं किम्? अतः लिङ्गं किम्?
पुंलिङ्गं महोदय.
अतः अत्र पूर्वैः मुमुक्षुभिः सम्बन्धः कः तयोः मध्ये?
तत्तु विशेषणविशेष. तत्तु
अतः पूर्वैः इति पदस्य लिङ्गं किम्?
पूर्वैः तत्तु तृतीय महोदय बहुवचन.
न न, किन्तु तस्य लिङ्गं किम्?
यदि अत्र पुंलिङ्गं महोदय.
पुंलिङ्गम्. अतः प्रथमविभक्तिरूपं किम्? एकवचनरूपं किम्?
ओ, पूर्वः.
हा, पूर्वः मुमुक्षुः. इदानीं तस्य बहुवचनरूपं किम् अस्ति प्रथमविभक्तौ?
कर्तरी महोदय. पूर्वे मुमुक् गुरुः गुरवः मुमुक्षवः.
किमर्थं पूर्वे इति? किमर्थं पूर्वे? तत् सर्वः इति तादृश नाम पदं नास्ति इति मन्ये. तत्र पूर्वः इति पूर्वः इति साधारण अकारान्तपदम् एव इति मन्ये. अपि ज्ञात्वा कार्यं अथवा कृतवन्तः इति. समीचीनं भगिनि. तत्र केवलं कर्मणि रूपे अस्ति तावदेव.
मुमुक्षुवः
मुमुक्षवः मुमुक्षवः गुरवः नास्ति खलु, गुरवः. गुरवः बहुवचने. समीचीनं भगिनि, सत्यं. समीचीनम् अस्तु. अग्रे रघुपति महोदय वदति वा अग्रे.
हा महोदय, पण्डिताः अपि कार्याकार्यविषये भ्रमन्ति. पण्डिताः अपि साधारणजनाः भ्रमन्ति, परन्तु अत्र पण्डिताः अपि कार्य अकार्यविषये भ्रमन्ति.
तत्र कार्य करणीयं वा अथवा न करणीयं वा इति खलु, कार्यम् अकार्यम् इति विषये ते अपि भ्रमन्ति. पण्डिताः सन्ति किन्तु ते अपि भ्रमन्ति इति, अतः तत्र साधारण अर्थः अपि इति पदस्य. अस्तु, धन्यवादः महोदय. अस्तु, अग्रे उषा भगिनी.
आं महोदय, कर्म अकर्म विकर्म अपि ज्ञातव्यं साधारणमस्ति अपि तत्र महोदय. पूर्वं अस्ति कर्म अकर्म विकर्म, वि उपसर्गपूर्वकं विकर्म.
तत्र तत्र कर्म इत्युक्ते यत् करणीयम्, अकर्म इत्युक्ते यत् न करणीयं, यत् निषिद्धं निषिद्धं. हा, अपि विकर्म इत्युक्ते
न कर्म न अकर्म.
हा, तत् कोऽपि जानाति वा? अहं न जानामि.
दुष्कर्म इति अस्ति वा महोदय?
न जानामि भगिनि.
विकर्म
इति
न न न
यो सम्यक्
न अकर्म अकर्म इति यत् निषिद्धम् अस्ति किन्तु विकर्म इति तत् प्रायशः किमपि अस्ति तत्र सम्यक्तया द्रष्टव्यम्
अकर्म इत्युक्ते कर्म कर्म इत्युक्ते साधारणकर्म अकर्म इत्युक्ते इनाक्षन् कर्म न करोति तत् अकर्म
विकर्म इत्युक्ते अस्तु अतः विकर्म एव निषिद्धम् इति वा अस्तु
यत्
न करणीयं यत् न करणीयम् अस्तु अस्तु
किमस्ति महोदय
विरुद्धं कर्म अथवा
अस्तु अतः अत्र तत्र अपि इति साधारण अर्थे स्वीकृतम् अस्तु अग्रे गच्छामः किं किं महोदय नरेश महोदय किम्
अत्र समूहः अस्ति कर्म अकर्म विकर्म
तत्र तत्र प्रायशः पूर्वं किमपि अन्यत् अस्ति तत् ज्ञातव्यम् अपि एतत् ज्ञातव्यम् इति तत्र पूर्वं किमपि आसीत् महोदय तत् वयं न जानीमः किन्तु तदनन्तरम् एतद् आगतम् इति मन्ये महोदय
अहं चिन्तयामि समूहः अस्ति अत्र च आवश्यकम्
च च इति स्थापयितुं शक्नुमः इति चिन्तयति वा अस्तु द्रष्टव्यमस्ति महोदय तत्र
निषिद्धकर्मणः इत्युक्ते किं महोदय
यत् न करणीयं तत्र शास्त्रे तत्र किं शास्त्रे न तादृशार्थः नास्ति तत्र अनेकानि पापकार्याणि सन्ति किन्तु तत्र शास्त्रे अत्र न लिखितमस्ति तत्र न करणीयम् इति यद् लिखितमस्ति यत् लिखितमस्ति एतद् न करणीयं तद् वयं वदामः तत्र निषिद्धम् अस्ति शास्त्रे निषिद्धः तत्र निषिद्धकर्म इति किन्तु अनेकानि कार्याणि तत्र कार्याणि करणीयम् इति अस्ति न करणीयमपि इति अपि सन्ति खलु अतः निषिद्धकार्यम् इत्युक्ते हा विकर्म इति इदानीम् इदानीमहं ज्ञातवान् विकर्म इत्युक्ते तदेव दुष्कर्म इति किन्तु तत्र निषिद्धकर्म अपि दुष्कर्म तयोः मध्ये भेदः अस्ति इति मन्ये सर्वं शास्त्रे न लिखितं खलु किन्तु न किन्तु दुष्कर्म एव
गीताप्रवेश पुस्तके दत्तमस्ति नैमित्तिककाम्यरूपेण
विकर्म इत्युक्ते ओ अस्तु अतः तत्र तद् भिन्नमस्ति भगिनि इदानीं गीताप्रवेशे किं दत्तमस्ति विकर्म इत्युक्ते
नैमित्तिककाम्यरूपेण तत्साधन
अस्तु भगिनि तत्र नित्यनैमित्तिक इति किन्तु तत्र यत् करणीयम् एव नियमेन करणीयम् इति नित्यं करणीयं नियमेन करणीयं नैमित्तिक इति किन्तु अस्तु तत्र प्रायशः किमपि द्रष्टव्यमस्ति किन्तु अपि इति पदस्य अस्मिन् वाक्ये कः अर्थः इति ज्ञातवन्तः
डिक्शनरि मध्ये विकर्मन् अस्ति विकर्मन् इत्युक्ते प्रोहिबिटेड् एक्ट् ओर् फ्राड्
अस्तु महोदय किन्तु महोदय तत्र किं वदामः तत्र पदस्य अनेकाः अर्थाः सन्ति खलु
महोदय
अतः तत्र किं भवति तत्र एकस्मिन् शब्दकोशे पश्यामः एकः अर्थः दत्तमस्ति किन्तु सः एव अर्थः यस्मिन् वाक्ये यं वाक्यं वयं यत् वाक्यं वयं पठन् स्मः तस्मिन् वाक्ये सः एव अर्थः भवति न वा इति तत्र सम्यक्तया न वक्तुं शक्नुमः खलु अत्र गीताश्लोकः अस्ति अतः तत्र साधारणपदमेव भवेत् किन्तु तत्र विशिष्ट अर्थः अपि स्वीकृतं स्यात् खलु अतः तत्र गीताप्रवेशः इति तादृश अथवा अन्यत् किं तत्र यत् टीका अस्ति तत्र तद् दृष्ट्वा एव वयं जानीमः तत्र सम्यक् अर्थः कः इति अतः अहं न जानामि तत्र विकर्मः इत्युक्ते किम् इति सम्यक्तया न जानामि महोदय तद् भवेत् किन्तु हा द्रष्टव्यमस्ति
महोदय कस्मिन् पुस्तके गीताप्रवेशस्य कस्मिन् भागे कस्मिन् पुटे भगिनी वक्तुं शक्
गीताप्रवेशः द्वितीयभागः अध्यायः
पुटसङ्ख्या
पुटसङ्ख्या 220
अस्तु मधुसूदन महोदय समीचीनं वा
आं महोदय समीचीनं किञ्चित् अतः भिन्नः अस्ति अत्र
सत्यमेव महोदय सत्यम् अतः तत्र अतः एवं वदामि अत्र दृष्ट्वा एव तत्र पूर्णश्लोकस्य अपि तस्य पूर्वं किम् आसीत् तत् तत्र बहु किमपि कार्यम् अस्ति तत्र अतः अत्र अस्माकं वर्गे केवलं तत्र अपि इति विषये तावत् ज्ञानं वा किञ्चित् अपि तस्य अधिकमपि भवेत् चेत् सन्तोषजनकम् अस्ति किन्तु अपि इति प्राधान्यतया तस्य अर्थः तस्य प्रयोगः कीदृशः इति अस्तु
आं महोदय प्रासङ्गिकम् अस्ति अपि महोदय इदानीं
किं महोदय
प्रासङ्गिकमस्ति अपि एव
इत्युक्ते
इत्युक्ते गीताज्ञानम् अनन्तरं कर्तुं शक्यते
विषये अपि चर्चां कुर्वन्तः स्मः
सत्यं
सप्तवाक्यमेव कृतवन्तः इदानीमपि तदेव कृतवन्तः महोदय
अस्तु अस्तु अग्रे गच्छामः अस्तु गीताञ्जलि भगिनी हा अग्रे पठति वा
आं महोदय त्रयोदश निसङ्गः कार्यं कुर्वन् अपि कर्मबन्धनं न प्राप्नोति निसङ्गकार्यं कुर्वन् अपि कर्मबन्धनं न प्राप्नोति
सामान्य अर्थः वा
निसङ्गकार्यं कुर्वन् अपि इत्युक्ते कार्यं कुर्वन् अपि कर्मबन्धनं न प्राप्नोति
अत्र तत्र तृतीयवाक्यः स्वल्पमपि अस्य धर्मस्य महतः भयात् त्रायते अथवा हा तत्र कुर्वन् हा तत्र कार्यं कुर्वन् अपि हा तत्र प्रायशः कर्मबन्धनं न प्राप्नोति अस्तु
निस्सङ्गः इति अत्र प्रथमः वक्तव्यः अस्ति खलु महोदय निस्सङ्गः
हा निस्सङ्गः इति प्रथमः निस्सङ्गः प्राप्नोति
यः निस्सङ्गः कार्यं कुर्वन् अपि कर्मबन्धनं न प्राप्नोति
कर्मबन्धनं न प्राप्नोति
किन्तु अत्र अपि स्थाने यदि आगच्छति तत्तु समीचीनं महोदय एव इत्युक्ते एव निसङ्गकार्यं कुर्वन् एव कर्मबन्धनं न प्राप्नोति
तत्र एव इति अर्थे नास्ति एव इति अर्थे नास्ति एव इत्युक्ते अन्ये कोऽपि न तादृशः न सन्ति इति तत्र तादृशः अर्थः नास्ति. तत्र
कर्तृपदसङ्गः निस्सङ्गः इति अस्ति. अतः सङ्गः कार्यं कुर्वन् अपि कार्यं कुर्वन् कर्मबन्धनं न प्राप्नोति. इदानीं निस्सङ्गः अपि कार्यं कुर्वन् सारी निस्सङ्गः कार्यं कुर्वन् अपि कर्मबन्धनं न प्राप्नोति. तादृशम् अत्र वा
अत्र पश्यामः. तत्
निष्कां न महोदय, निस्सङ्ग इत्युक्ते निष्काम् इत्युक्ते किमपि अपेक्षा
न न सङ्ग
निस्सङ्ग इत्युक्ते सेवाभावना.
कोऽपि वदति वा निस्सङ्गः इत्युक्ते किम् इति? शोभा भगिनी वदतु. हा वदतु भगिनी शोभा.
सङ्ग निस्सङ्ग इत्युक्ते यथा भवती उक्तवती तत्र वितौट् अटाच्मेण्ट् इति एव अस्ति महोदय. निस्सङ्गः कार्यं यदि कार्यं कुर्मः चेत् वयं कर्मफलं भोक्तुं सिद्धं भवामः. किन्तु निस्सङ्गः कार्यं कुर्वन् अपि कर्मबन्धनं तस्य कृते कर्मबन्धनं नास्ति. निस्सङ्गः वितौट् अटाच्मेण्ट् किं कुर्
अस्तु अत्र समीचीनम्
इति सत्सङ्गं त्यक्तवान् इति अर्थः
अस्ति. विदौट् अटाच्मेण्ट् तदेव समीचीनमेव. सङ्गः यस्य अटाच्मेण्ट् अस्ति सः सङ्गः, सः निस्सङ्गः.
अतः तत्र अपि इति तत्र साधारणार्थः अस्ति वा?
हा कुर्वन् इत्यस्य सम्बन्धे अस्ति महोदय. कार्यं कुर्वन् अपि
डिस्पैट्
कार्यं
कार्यं करोति तथापि कर्म तथापि कर्मसम्बन्धनं न प्राप्नोति न प्राप्नोति. इदानीं इदानीं तत्र एतत् कुर्मः तत्र अपि इति वाक्ये मध्ये भवति किन्तु तस्य स्थानस्य परिवर्तनं कुर्मः. यदि वयं वदामः निस्सङ्गः अपि कार्यं कुर्वन् कर्मबन्धनं न प्राप्नोति, इदानीम् अर्थभेदः अस्ति वा? अत्र अत्र किं भवति, प्रायशः अन्य कोऽपि अस्ति सः अथवा सः अपि कार्य कुर्वन् कर्मबन्धनं न प्राप्नोति. इदानीं निस्सङ्गः अपि तादृशः अस्ति इति. अतः अपि इति पदस्य स्थानस्य पदं कुत्र भवति वाक्ये तस्य प्रामुख्यता अस्ति, तस्य महत्वम् अस्ति इति ज्ञातुं शक्नुमः. अग्रे तत्र एव इति विषये अपि एषा एव स्थितिः, किन्तु अपि इति विषये अपि तादृशस्ति तादृशी स्थितिः अस्ति. अस्तु समीचीनं.
विषये एव भवति तादृश क्लेशः अस्ति खलु महोदय?
हा न न क्लेशः नास्ति महोदय. तत्र किमर्थं चेत् तत्र किमर्थम् इत्युक्ते तत्र अव्ययम् एतादृश तत्र एव इति
नास्ति.
विभक्ति एकं विभक्ति नास्ति, अतः तत्र वाक्ये क्रियापदेन अन्वयः नास्ति. सः एकः अंशः. द्वितीयः अंशः अस्ति तत्र यत्र तत्र एव इति पदं स्वीकुर्मश्चेत् तस्य प्रभावः तत्र यदा वाक्ये स्थापयामः तस्य पदस्य प्रभावः कुत्र भवति चेत् तस्य पूर्वपदे तस्य प्रभावः अस्ति. अतः पदस्य स्थानस्य महत्वम् अस्ति.
पूर्वपदे एव भवति
सामान्यतया सः एव खलु. अतः तत्र स्थानस्य महत्वम् अस्ति. स्थानस्य महत्वम् अस्ति. अस्तु अग्रे पूर्णेन्दुमहोदय वक्तुम् इच्छति वा?
आम् महोदय. अत्यन्तं पापि अपि ज्ञानेन मोक्षं प्राप्नोति. अत्र साधारण जनः ज्ञानेन मोक्षं प्राप्नोति, अत्यन्तपापि अपि
मोक्षं प्राप्नोति. समीचीनं महोदय. इदानीं तत्र पापी इति पदस्य लिङ्गं जानाति वा? पापी इति पदस्य तत्र वाक्यं दृष्ट्वा
पापिम् इति यत्र ईकारान्त अस्ति पुल्लिङ्गे तत्
पुल्लिङ्गे वा तत्र अस्तु अस्तु किन्तु तत्र अत्यन्तं पापी इति तत्र कः सम्बन्धः
विशेषण
विशेषभावः अत्यन्तम् इति तत्र रूपं कीदृशरूपं विभक्ति का अत्र अत्यन्तम्
आम् अव्ययं प्रायः
अव्ययं वा
पापी
इति पुल्लिङ्गे एव अस्ति वा
अत्यन्त इति अस्ति लिङ्गम् अस्ति अव्ययः नास्ति
पापिन्
नपुंसकलिङ्ग
पापिन् इति किन्तु लिङ्गं किं पापी इति पदस्य लिङ्गं किं
पाप्मन् पुल्लिङ्गम्
पुंलिङ्ग महोदय पुंलिङ्ग अस्ति पापिन्
पापी इति वा पापिन् अत्यन्तम् इति पदस्य लिङ्गं तत् अव्ययं वा
महोदय
अस्तु अस्तु अतः अस्तु धन्यवादः अतः मम भ्रमः अहं चिन्तितवान् तत्र अत्यन्तम् इति अस्ति तत् प्रायशः नपुंसकलिङ्गे अस्ति इति किन्तु तत् अव्ययम् अस्ति चेत् न वक्तुं शक्नुमः अतः
अव्ययम् अस्ति वा अहं न जानामि
अत्यन्त इति एड्जेक्टिव् इति दत्तमस्ति महोदय अत्यन्तम् इति शब्दस्य
तर्हि लिङ्गत्रये भवति एड्जेक्टिव् अस्ति चेत्
किन्तु अत्र अत्यन्तं पापी इति दत्तमस्ति अस्तु तत्र द्रष्टव्यमस्ति किमर्थं तादृशरूपम् अस्ति
अव्ययमस्ति महोदय अव्ययमस्ति
अव्ययमस्ति
अत्यन्त अव्ययमस्ति
अस्तु अतः तत्र अतः तत्र पापी इति पदस्य लिङ्गं न ज्ञातुं शक्नुमः अत्यन्तम् इति रूपं दृष्ट्वा तस्य रूपं दृष्ट्वा अस्तु धन्यवादः पूर्णन् महोदय अस्तु अग्रे चक्री महोदय अग्रे वक्तुम् इच्छति वा चक्री महोदय अस्ति वा अस्तु लक्ष्मी भगिनी अग्रे वक्तुम् इच्छति वा
योगयुक्तः विषेन्द्रियः कार्यं कुर्वन् अपि न नश्यति
अत्र अपि इति तत्र यथा वयं पूर्वं दृष्टवन्तः खलु तत्र निस्सङ्गः कार्यं कुर्वन् अपि इति तादृशार्थे एव अस्ति खलु अत्रापि साधारणजनः साधारणजनः न नश्यति इति कथं कार्यं कुर्वन् न नश्यति इति अस्ति वा
कार्यं कुर्वन् न नश्यति कार्यं कुर्वन् न नश्यति
इति वा साधारणजनाः तत्र अपि इति पदस्य अर्थः कीदृशः अस्ति तत्र निस्सङ्गः कार्यं कुर्वन् अपि कर्मबन्धनं न प्राप्नोति तादृशः अर्थः अस्ति वा अथवा अन्यः अर्थः अस्ति वा किं चिन्तनं भवत्याः
जितेन्द्रियः योगयुक्तः अपि
न नश्यति तत्र समीचीनं भगिनि तत्र कर्तृपदं तत्र कर्तृपदद्वयम् अस्ति खलु तत्र कर्ता कः न नश्यति यः जितेन्द्रियः अस्ति अपि योगयुक्तः अस्ति तत्र विशेषणद्वयम् अस्ति तत्र तत्र तादृशः कार्यं कुर्वन् अपि न नश्यति सः कार्यं करोति तथापि न नश्यति इति अर्थे अस्ति अस्तु भगिनि धन्यवादः अस्तु अग्रे नरेश महोदय
कार्याणि अपि ईश्वरार्पणरूपेण करणीयानि
न
सर्वाणि कार्याणि अपि ईश्वरारूप
ईश्वर अर्पणरूपेण ईश्वरार्पणरूपेण करणीयानि.
सर्वाणि कार्याणि ईश्वरारूपेण करणीयानि.
अत्र अपि इति तत्र कीदृश तत्र एम्फसिस् प्रायशः खलु तत्र सर्वाणि कार्याणि अपि हा ईश्वर ईश्वरार्पणरूपेण करणीयानि इति. तत्र अन्यत् किमपि कार्यं नास्ति यतः अत्र सर्वाणि कार्याणि इति उक्तम् अस्ति खलु.
सर्वाणि कार्याणि अपि अस्ति साधारणकार्याणि कार्याणि.
हा अतः सर्वं सर्वं तत्र ईश्वर अर्पणरूपेण करणीयानि इति. अस्तु अग्रे वंशी सुधा भगिनी वदति वा.
आं महोदय.
शौर्यम् इति प्रायशः
शौर्यं शौर्यं तेजः धृतिः युक्ते अपलायन अपि अपलायनमपि क्षात्रस्वभावः भवति. क्षात्रस्वभावः अपलायनमपि शौर्यः तेजः धृतिः युद्धे अपलायनं पलायनम् अपलायनमपि क्षात्रस्वभावः भवति इत्युक्ते पलायनमपि अपलायनमपि शौर्यः तत् किमर्थं भवति महोदय?
तत्र प्रायशः भगिनि तत्र शौर्यं 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 युद्धे क्षात्रस्वभावः इत्युक्ते क्षत्रियस्वभावः खलु क्षत्रियगुणः. हा शौर्यं क्षत्रियगुणगुणः अस्ति तेजः अपि क्षत्रियगुणः अस्ति क्षत्रियगुणः अस्ति धृतिः अपि क्षत्रियगुणः अस्ति अपि अन्ते युद्धे अपलायनम् युद्धात् न गन्तव्यं पलायनं न कुर्यात् इति तदपि क्षत्रियस्वभावः भवति इति.
महोदय परन्तु तेजः तेजस् अस्ति वा तत्र द्वितीयाविभक्ते बहुवचनम् अस्ति वा?
न सर्वं तत्र भवति इति. तत्र
भगिनी
क्रियापदं किम् अस्ति अस्मिन् वाक्ये?
भवति
भवति कीदृशपदं तत्र अकर्मकः अस्ति खलु.
महोदय यदि अपि योजयामः चेत् सर्वे एकः एव विभक्तिं भवितुम् अर्हति. ओ तत्र शौर्य नपुंसकलिङ्गमस्ति वा? अस्तु शौर्यः इति अहं चिन्तयामि. अस्तु
न किन्तु भवति इति अस्ति खलु भगिनि अतः तत्र शौर्यं तत्र शौर्यं तत्र क्षत्रियस्वभावः स्वभावाः इति ये सन्ति तत्र तेषाम् आवली दत्तमस्ति तावदेव खलु. क्षत्रियस्वभावः नाम शौर्यं तेजः धृतिः अपि युद्धे अपलायनम् इति.
अत्र उपयोगः च इति अर्थे प्रयुज्यते.
हा तत्र तत्र यदि वाक्यद्वयं कर्तुम् इच्छामः तत्र किं भवति शौर्यं तेजः धृतिः इति क्षात्रस्वभावः भवन्ति अथवा भवति युद्धे अपलायनमपि क्षात्रस्वभावः भवति इति तादृशरूपम् अस्ति इति मन्यत्र. अतः तत्र प्रथमत्रयस्य एकः समूहः इदानीं तस्मिन् चतुर्थमपि तस्य तदपि तस्यापि तत्र अन्तर्भवेत् इति चिन्तनं योजनं तस्यापि योजनं भवेत् इति चिन्तनं. समीचीनं भगिनि अस्तु धन्यवादः. अस्तु अग्रे मधुसूदन महोदय
न
क्षात्र अत्र क्षत्रियस्वभावः इति मन्ये क्षत्रियस्वभावः तस्य धर्मः. मधुसूदन महोदय अग्रे.
यस्य अहङ्कारः नास्ति सः कृत्वा अपि न करोति. यस्य अहङ्काराः नास्ति
अहङ्कारः अहङ्कारः एक एकवचने
अहङ्कारः यस्य अहङ्कारः नास्ति सः कृत्वा कृत्वापि न करोति सः कृत्वा
हा तत्र यः यस्य अहङ्कारः अहम् इति तत्र हा यत्र अहङ्कारः अहम् अहम् इति यस्य तादृशभावः नास्ति अतः यदि तस्य भावः तादृशः नास्ति चेत् सः न चिन्तयति अहमेव करोमि इति खलु तत्र भगवता एव एतत् सर्वं भवति इति यस्य चिन्तनम् अस्ति सः कृत्वापि न करोति इति सः करोति किं सः न करोति यथा तत्र पूर्वं रघुवीरानन्दमहोदय उक्तवान् तत्र अकर्ता कर्ता इति यस्य ज्ञानम् अस्ति इति तादृश अर्थे प्रायशः किन्तु यस्य अहङ्कारः नास्ति सः कृत्वा अपि न करोति सः करोति तथापि न करोति न करोति इति अर्थे अस्तु अग्रे हा श्रीप्रिया भगिनी वदति वा
शौचम् आर्जवं ब्रह्मचर्यम् अहिंसा शारीरं तपः भवति
हा तत्र अपि इति साधारण अर्थे अस्ति इति मन्ये खलु
एतत् शौचम् आर्जवं ब्रह्मचर्यम्
तदपि प्रथमत्रये योजयामः इति चिन्तनं समीचीनं भगिनि अस्तु शोभा भगिनी अग्रे पर्युषितं
क्षम्यतां पर्युषितं उच्छिष्टम् अमेध्यम् अपि भोजनं तामसप्रियं भवति तत्र कर्माणि समूहे एव सन्ति महोदय तत्र
अन्तिमम् अपि तस्मिन् समूहे स्थापयामः इति चिन्तनम्
अपि भोजनं तामसप्रियं भवति अन्ते एव कर्मपदम् इति दृश्यते गतरसं
न न कर्मपदं नास्ति भगिनि तत्र तामसप्रियम् अस्ति भोजनं तामसप्रियम् अस्ति तत्र तामसप्रियम् अस्ति विशेषणं भोजनं पदस्य
तामसप्रियं भोजनं भवति
हा तामसप्रियं भोजनं भवति किं हा
अमेध्यम्
यातयामं भोजनं तामसप्रियं भवति यातयामं क्षम्यतां यातयामं भोजनं तामसप्रियं भवति गतरसं भोजनं
तामसप्रियं
ओ तत् द्रष्टव्यं तत्
टैम् पास् महोदय याम इत्युक्ते टैम् खलु
यातयामं
तत्र भोजनस्य विषये तत्र हाफ् कुक्ड् महोदय तत्र
अस्तु अस्तु हा तत्र बहु किमपि तत्र अस्ति हा समीचीनं अस्तु पर्युषितं
इत्युक्ते
ड्रैड् पर्युषितं वा
परिषदं रिमेण्ड्
स्टेल् अतः तत्र
यातयामम् इत्युक्ते फुड् कुक् त्री अवर्स् बिफोर् बीङ्ग् ईटन्
अस्तु अस्तु यातयामं
यतोहि सर्वे अपि यातयानमेव खादन्ति स्म
तदा एव गतरसं भवति परिषदं भवति
अस्तु तत्र भोजनं तामसप्रियं भवति इति अस्तु केवलं वाक्यद्वयम् अस्ति तद् समापयामः नो तर्हि तत्र अग्रिमवर्गे एव इति विषयः भवति अस्तु तत्र
भवती
एकप्रश्नः महोदय, भवति इति अस्ति चेत् अकर्मक, ततः तत्र कर्मपदाः
नास्ति, तत् सर्वं कर्म भोजनं तामसप्रियं भोजनम् इति तावदेव.
तत्र किन्तु गत तत्र किं भवति,
सर्वं तस्य विशेषणमेव अस्ति भगिनि, तावदेव. कीदृशं भोजनं तेषां प्रियम् इति.
अस्तु अस्तु महोदय, अवगच्छामि.
तावत् तावदेव विशेषणम् तावदेव. अस्तु, रघुपतिमहोदय अग्रे करोति वा?
हा करोमि महोदय. मनुष्येषु सात्विकी राजसी तामसी अपि प्रकृतिः भवति. मनुष्येषु सात्विकी राजसी अपि च तामसी प्रकृतिः भवति इति. तामसी अपि
तत्र त्रैविध्यम् अस्ति. समीचीनं.
सर्वत्र एकवचने भवति अपि इति योजयित्वा अपि.
हा तत्र प्रकृतिः भवति. हा कीदृशप्रकृतिः तत्र सात्विकी प्रकृतिः राजसी तामसी इति. हा सत्यं. हा अस्तु, अग्रे अग्रे किं तत्र श्रीप्रिया भगिनी वदति. का उक्तवती? ललिता भगिनी. अस्तु भगिनी,
अहं पठिष्यामि.
अस्तु भगिनी, पठतु पठतु. अज्ञानिनः
अज्ञानिनः एतत् मम अस्ति, तत् अपि मम भविष्यति इति चिन्तयन्ति. अज्ञानिनः कर्तृपदम् एतत् मम अस्ति, तत् अपि मम अस्ति इति चिन्तयति.
इति चिन्तयन्ति. अज्ञानिनः इति बहुवचने अस्ति. अज्ञानिनः चिन्तयन्ति. अज्ञानिनः एतत् मम अस्ति इति चिन्तयन्ति. तत् अपि मम भविष्यति. हा एतत् मम अस्ति इति चिन्तयन्ति. तत् अपि मम भविष्यति इति चिन्तयन्ति. तत्र अपि इति पदस्य साधारण अर्थः. अस्तु, हा अस्तु, समीचीनम् अस्ति. इदानीं तत्र अपि इति विषये बहु किमपि ज्ञातवन्तः. अपि इति पदस्य अर्थद्वयं न्यूनातिन्यूनम् अर्थद्वयम् अस्ति इति ज्ञातवन्तः. अपि तस्य वाक्ये तस्य स्थानस्य महत्त्वम् अस्ति इति तदपि ज्ञातवन्तः. अस्तु तर्हि बहु समीचीनम्. इदानीम् अग्रे गत्वा अग्रिमवर्गे एव इति पदस्य चिन्तनं कर्तुं शक्नुमः. अस्तु, समीचीनमस्ति. धन्यवादः सर्वेषां. नमस्कारः. तत्र एकनिमिषं, तत्र रघुवीरानन्दमहोदय अस्ति चेत् तत्र किमपि वदति वा महोदय अन्ते श्लोकं? रघुवीरानन्दमहोदय नास्ति इति मन्ये.
सर्वे भवन्तु सुखिनः.
वदतु महोदय.
सर्वे सन्तु निरामयाः. सर्वे भद्राणि पश्यन्तु.
हरि ओम् धन्यवादः सर्वेषां. नमस्कारः. धन्यवादः. अग्रिमवर्गे मिलामः. नमस्कारः.
धन्यवादः.
नमस्कारः.
धन्यवादः.